अग्ने सविधम् जडस्वेण स्वदे प्रदेहर्या धृताधीम् वर्ष्मन् पृथिव्यासु विलत्वे अह्नामूर्ध्वो भवसुक्रतो देवयज्या आदेवानामग्रया भेहया तु नरासंसो विश्वरूपेभिरश्वैः ऋतस्य पथा नमसामि येधो देवेभ्यो देवतामश्रुषोदत् सस्वत्तममेरदे दूत्यायमविष्मन्तो मनुष्यासो अग्निम् अकृष्ठैरस्मै सुमृतारथेना देवान्वक्षिणिषदेवहोता विप्रथदाम् देवजुष्टम् तिरश्चा दीर्घम् राध्मासुरभिभूत्वस्मे अहेलतामनसा देवबर्हिरिन्द्रज्येष्ठाङ्कुसतो यक्षि देवान् दिवो वासानुस्पृशतावरीय पृथिव्या वामात्रया विश्रयध्वम् उसतेर्द्वारो महिला महद्भिर्देवम् रथम् रथयुर्धारयध्वम् देवी दिवो दुहितरासु शिल्पे वृषासानक्ता सदताम् नियोनौ आवाम् देवास उषते उषन्त पुरौ सीदन्तु सुभगे उपस्थे ऊर्ध्वो ग्रावा बृहदग्निः समिद्ध प्रियाधा मान्यदीतेरुपस्थे पुरोहिता मृत्विजा यज्ञे अस्मिन् विदुष्टा राद्रवे नमाय देताम् तिस्रो देवेर्बर्हिदम् वरीयासीदशग्रभावस्योनम् मनुष्यद्यज्ञम् सुधीता हवीम् शीला देवी घृतपादीजुषन्त देवस्तुष्टर्यद्धजारुत्वमानर्यदङ्गीरसामभावस्व चाभूः स देवानाम् पाथ उपप्रविद्वानुसंज्ञक्षिद्रविनोदस्सुरत्नाः वनस्पतेरसनया नियूया देवानाम् पाथ उपवक्षिविद्वान् सुधादिदेवः कृणवद्धवीम् शपदाम् द्यावा पृथिवी हवम् मे आग्नेव हवरो न मिष्टये न इन्द्रम् दिवो मरुतो अन्तरिक्षात् सीरन्तु बर्हिर्विश्वायत्रा स्वाहा देवामृताः मादयन्ताम् बृहस्पते प्रथमम् वाचो अग्रम् यत्प्रैरगनामधेयम् दधानाः यदेषाम् श्रेष्ठम् यदधिप्रमासीत्रेणाददेषाम् निहितम् गुहाभिः सर्गोमिपतिता पुनः पुनन्तो यत्र धीरामनसा वा समक्रत अत्रा सखाय सख्यानि जानते भद्रैराम् लक्ष्मीर्निहिताधिवाचि यज्ञेन वाचः पादवीयमायन्तामन्वविन्दन्विषेषप्रविष्टाम् तामाभृत्याव्यदतः पुरत्राताम् सप्तवेभा अभिसन्नामन्ते उत त्वः पश्यन्न ददर्शवाच उत त्वः शृण्वन्न श्रेणोत्येनाम् उत त्वस्मै तन्वा अम्बिसस्रे जादेव मत्यमुषति सुवासाः उत त्वम् सख्ये स्थिरमेतमाहुर्नैनम् यन्वन्त्य विवादीनेषु अधेन्वाचरति माययैषवाचम् सुसृवाङ्काफलामा पुष्पाम् यस्तित्याज सचिविधम् सखायम् नदस्य वाच्यपि भागो अस्ति यदीम् शृणोत्यलकम् शृणोति न हि प्रवेद सुकृतस्य पन्थाम् अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेश्वस मा बभूवः आदघ्नाद उपकक्षाद भूत्वे भस्नात्वा भूत्वे ददृश्रे हृदा दष्टेषु मनसो जपेषु यद्ब्राह्मणाः संयजन्ते सखायः अत्राह त्वम् विजाहुर्वेद्याभिरोह ब्रह्मा नो विचारन्तु त्वे इमे देनार्वाङ्न परश्चरन्ति न ब्राह्मणासो न सुतेकराधः तजे देवाचमधिपत्य पापयाः शिरीस्तन्त्रम् तन्वते अप्रयज्ञयः सर्वे नन्दन्ति यशसागरेण सभासाहेन सख्या सखायः किल्बिषस्मृत्ये गृहनिर्हे रामरम् हितो भवति वाजीनाय ोढमास्ते पुष्पाङ्गा यत्रन्वो गायति सक्वादिषु ब्रह्मा त्वो वदति जात विद्याम् यज्ञस्य मात्राम् विमीमीत उत्वा भद्रम् नो अपि वादयमनाः ओ हरिः ओ देवानानुभयञ्जाना प्रभोजानुभिमन्यजाः उच्छेषु दस्यमानेषु यः पश्यादुत्तरे युगे ब्रह्मणस्पति देदासम् कर्मारायिवाधमत् देवानाम् पूर्वे युगे स दस्वदजायत देवानाम् युगे प्रथमे स दस्वदजायत तदा सा अन्नजायन्तरदुत्तानपदस्पति भोर्जज्ञवुत्तानपदो भुव आसा अजायन्त अधिदेर्दक्षो अजायत दक्षाद्वति जिह्पति अधिदिह्यजनष्टदक्षयादुहिता तव ताम् देवा अन्वजायन्त भद्रामृतबन्धवः यद्देवा अधस्व निलेषु संरब्धा अतिष्ठत अत्राभो नृत्यदामिव तीव्रो रेणुरपायत यद्देवा यदयो यथा भुवनान्यबिम्बत अत्रा समुद्रा गूढमासूर्यमजभर्तन अष्टौ पुत्रासो अधीते जातास्तन्वा अस्पति देवाङ्गुपभ्रैः सप्तभिः परामार्ताण्डमास्यत् सप्तभिः पुत्रैरधिपभ्रैः पूर्ण्यम् युगम् प्रजायै मृत्यवे त्वत्पुनर्मार्ताण्डमाभरत् जनिष्ठा उग्रसहसेतुराज मन्द्रवोजिष्ठो बहुला भीमानः अवध्रन्निन्द्रम् मरुतश्चिदत्र मादाय धीरम् दधनद्धनिष्ठा गृहोरिषत्तादृशनीचिदेवैः पुरुषंसेन वादृधुष्ट इन्द्रम् अभिवृते वदामाः पदेन भान्तात्र विद्वादुदारन्दगर्भाः विश्वादेपादा प्रयज्जिघास्य वर्धनवादाः उदये चिदत्र ृगान् सहस्रमासन्दधिवे अस्मिनावृत्याः समानातो निरुपायासि यज्ञमाना सत्या रक्षाय वक्षि वसाव्याविन्द्रधारय सहस्राश्विना सूरदधुर्मघानि मन्दमानहृतादधि प्रजायै सखीभिरिन्द्रायिषेभिरर्थम् आभिर्हि माया उपदस्युमागान्निरप्रसम्रावपत्तमांसि सनामानादिद्वदयोन्यस्मावाहन्निन्द्र उषसो यथा नाः विश्वैरागच्छस्वशीभिर्निकामै साकम्रातिष्ठा हृद्या जगन्ध सञ्जगन्धनमोचिम्मभस्यम् दासम् गृह्णानरिषाये विमायम् पञ्चगर्थमनवेश्योनान् पथो देवत्राञ्जसेवजानान् त्वमेतानि वपृषे विनामेषान इन्द्रदधिषे गभस्थौ अनुत्वा देवाश्रवदा मदन्त्युपरि बुद्ध्यान् बलिनश्च गर्थ चक्रम् यदस्यात्त्वा निषत्तमुदो तदस्मै मद्विच्छच्छद्यात् पृथिव्यामदीषधम् यदोधप्पयोगोऽश्वदधावोषधीषु अश्वादियाजेति यद्वदन्त्योजसो जातमुदमन्यजेनम् मन्योदीयाय हर्म्येषु तस्थौ यदः प्रजज्ञ इन्द्रो अस्य वेद वयस्सु पन्ना उपासेदिरिन्द्रम् प्रियमे धारिषजो नाधमानाः अपद्भान्तमोऽन्नहि ऊर्ध्वजक्षर्ममुद्या अस्मान्निषदेव बद्धान् वसूनाम् वादकृषय्यक्षन्धिया वा यज्ञैर्वा रोदस्योः अर्वन्तो वाजेन यमन्तः सादो वनम् वाजे शुश्रुणम् शुश्रुतोधो हवाजे गापसूरो नक्षसद्याम् स पश्यतामनसानिम् स दक्षाम् चक्षानायत्र सुविदाय देवाद्यौर्नवारेभिः कृणवन्तः स्वैः यमेणामृतानाङ्गी सर्वदा दाजे कृपणन्तरत्नम् धियम् च यज्ञम् च साधम् तस्तेनोधान्तुपसव्यामसानि आदत्त इन्द्रायवः पनन्ताभिय पूर्वम् गोमन्तम् त्रिवत्सान् सकृत्वाये गुरुपुत्राम् महीम् सहस्रधाराम् नृहतीम् दुदुक्षणम् सतीमहीन्द्रमवासेवनध्वमनानदम् दमयन्तम् पृथन्योन् भुक्षणम् मघवानम् सुवृक्तिम् भर्तायो वज्रम् नर्यम् पुरुक्षुः यद्वापानपुरुतमम् पुराकालावृत्रयेन्द्रो नामान्यप्राः अचेजप्रासहस्वदीमस्मसि कर्तवेकरत्तत् प्रसुभावो महिमानमुत्तमम् कालर्वोचादिशदने विवस्वतः प्रसप्तदत्तत्रेधागिचक्रमप्रसृत्वारीणामतिसिन्धुरोजसा प्रतेरदद्वरुणो जाता वे पथः सिन्धो यद्वाजाङ्गभ्यद्रमस्तम् भूम्याधिप्रवदायासि सानुनायदेशामग्रम् जगतामिरज्जसि दिवि स्वनोजदते भूम्योपर्यनन्दम् दुष्णमुदीयन्ति भानुना अभ्रादीव प्रस्थानयन्ति रष्टयश्चन्धर्गदेति वृणभो नरो रूपत् अभित्वा सिन्धोति सुमन्नमातरो भास्रा अर्णन्ति पयासेवधेनवाः राजेवयुद्ध्वानयसि त्वमित्सुजौ यदा सामग्रम् प्रवतामि नक्षसि इमम् मे गङ्गे यमुने सरस्वति सुदृष्टोऽहम् सजतापरुष्ण्या अधिज्ञामरुद्विधे विदस्वजार्जीकीये शृणुह्या सुषोमाया सिदासीते सरिते यत्र सङ्गते तत्रा प्लुतासो दिवमुत्पादन्ति देवैः तन्वा अमृतेजन्ते धीरास्ते नासो अमृतत्वम् भजन्ते दृष्टामाया प्रथमम् जात वे सजोः सुसत्त्वा रसया स्वेत्यात्या त्वम् सिन्धो कुभया गोमतीम् क्रमम् मे हत्वा सरथम् याभिधीयसे यथीत्ये नीरसति महित्वा परित्रयांसि फलतेन जांसि अदब्धा सिन्धोरपसामपस्तमा स्वानचित्रापपूषीव दर्शता स्वस्वा सिन्धः सुरथा सुवासा हिरण्यजी सुकृता भाजिनीवती ऊर्णावती युवतिः शीलमावत्युदाधीवस्ते सुभगा मधुमृथम् सुखम् रथम् युयुजे सिन्धुरश्विनम् तेन वाजम् समिषदस्मिन्नाजौ महाङ्घस्य महिमापनस्य ते दब्धस्य स्वजतसो विरप्सिनाः आवरञ्जसवोर्जाम्यम् मरुतो रोदसी अनक्तन उभेयथा नो अहानी स चाभुपासदस्तदो मरिवस्यात बुद्धिता तदश्रेष्ठम् समानम् सुनो धनात्यो न हस्त यतो अग्निः सोदरि इदध्या अर्यो अभिभूदिपुंसम् महोराजे चित्तरुतेजदर्वदः तदिध्यस्य समानम् विवेरपो यथा पुरामन वेगातुमश्रेत् भो अन्नसि त्वाष्ट्रे अश्वनिर्निजेश्वध्वराङ्गाधिश्रयोः अपादरक्षतो भङ्गुरावदस्कभायदनिर्वेतिम् से ददामातिम् आनोरयम् दर्वावीरम् दुनोदरदेवाव्यम् भरदश्लोकामद्रजः जिवस्थिता वोमावर्वतरेभ्यो विभ्रनादिदास्तापस्तरेभ्यः वायोस्थिता सोमारभस्तरेभ्योऽग्नेश्चिदर्जभिजगृत्तरेभ्यः धुरन्दो न यतदस्तो त्वन्धसो ग्रावा नो वाचादिविता दिवित्माता न लो यत्र जगते काम्यम् मध्वा घोषयन्तोऽभितोऽभिधस्तुराः शृण्वन्ति सोमम् रथिरासो अद्रजो निरस्सरसम् कविषो दुहन्ति ते दुहन्त्युधरुपसेतनायकम् नरो हव्यानमर्थयन्त आसभिः एतेन रस्वपासो अभूतनयेन्द्राय सुनथ सोमामद्रयः वामम् वामम् वो दिव्यायधाम्नेवसु वसुवः पार्थी वायसुन्वते अभ्रपृषो न वाचा प्रूढावसो हविष्मन्तो न यज्ञाविदानुराः सुमारोदन्न ब्रह्माणमर्गते गणमस्तो शेषान्न शोभसे श्रिये मर्यासो अन्येङ्ग्रकृण्वत सुमारोदन्न पूर्वीरतिक्षपाः दिवस्पुत्रा सये दानये दिरादित्यासस्ते आक्रानवाः वृषः ये दिवः पृथिव्यानवर्गणात्मनादिद्रे अभ्रान्न सूर्याः पाजस्वन्दो न वीराः परस्य वो रिषादसो न वर्याः अभिद्यवः युष्माकम् बुध्ने अपान्नयामानि विधर्यति न महेश्र धर्यति विश्वत्सुर्यज्ञो अर्वागयम् सुभप्रयस्वन्दो न सत्रा च आगत योऽयम् धोर्षप्रयुजो न रश्मिषर्ज्योतिष्मन्दो न भासाव्युष्टिषु सेनासो न श्रयासो रिषादसप्रवासो न प्रसीदासप्परिपृषाः प्रयद्वहद्धेमरुतः परागाद्योऽयम् महः संवरणस्य वस्वाः यानासो वसभोराध्यस्याराच्चिद्वेषस्वनुतर्यूयोत यबुद्रिजीयज्ञे अध्वरेष्ठामरुद्भ्यो न मानुषो ददासते देवत्सपयो दधते सुवीरम् स देवानामपि गोपीठे अस्तु ते यज्ञेषु यज्ञिया सभूमा आदित्येन नाम्ना सम्भविष्टाः तेनो बन्धुरथदोर्मनीषाम् महश्च यामन्नध्वरे च गानाः विप्रासो नमन्नाभिस्वाद्यो देवाभ्यो को न यज्ञे स्वप्नासः राजा नो न चित्रास्तु सन्दृशाः क्षितीनान्न मर्याः अरेपसाः अग्निर्नये भ्राजसा रुक्मवक्षसो वादासो न स्वयुजः सद्यभूतयः प्रज्ञादारो न ज्येष्ठास्तु नीतयस्तु शर्मा नो न सोमा ऋतयते वादासो न येधुना योजिघत्नवोऽग्नीनान्न जिह्वा वीरोचिनाः भर्मन् वन्दो न योधाश्रिमी वन्दः पितॄणान्न संसास्तु राजजाः तथा नान्न ये येरास्वना भजो जिगीवाम् सो न सूरा अभिद्यवः हरेयवो न मर्या धृतप्रजोभिस्वर्तारो अर्कन्न सुष्टुभाः अश्वासो न ये ज्येष्ठा स आसवो दिषभो न रक्षः सुदानवः आभो न निर्णयरुदभिर्जिघत्नवो विश्वरूपा अङ्गीरसो न सामभिः रावा नो न सूनयः सिन्धो मातर आदर्दिरासो अद्रजो न विश्वः शिशूला न क्रीडयस्व मातरो महाग्रामो न यामन्नुदद्विषा उषधान्न केतवोऽध्वरश्रियस्व भञ्जवो नाञ्जभिर्व्यस्विदन् सिन्धवो न ययो भ्राजदृष्टयः परावतो न योजनानि ममिरे भगवानो देवाकृता सुरत्ना नस्मान सोदेन्मर्दो वावृधानाः अधिस्तोत्रस्य सख्यस्य गातसनाद्धिवो रत्नधेयानि सन्ति अपश्यमस्य महतो महित्वमत्यस्य मत्यासु भिक्षु नानाघनो विभृते सम्भरेते असिम्भति वत्सति भूर्यत्तः गुहासिरो निहितमृधकक्षीसृन्वन्नत्य जिह्वजावनानि अत्रान्यस्मे पद्भिः सम्भरञ्जुत्तानः स्थानमसाधि भिक्षु प्रमादः प्रातरम् गुह्यमिच्छन् कोमारो न भीदः सर्पदुर्वीः सदन्न पक्वमविदच्छुदन्तम् ऋक्वांसम् रिप उपस्थे अन्तः तद्वामृतम् रोदसी प्रब्रवीमिराजमानो मातरागर्भो अस्ति नाहम् देवस्य मर्त्यस्तिकेताग्निरङ्गविचेताः स्वप्रचेताः यो अस्मान्नम् दृष्ट्वा आरधात्याद्यैर्घृतैर्जुहोदिपुष्यति तस्मै सहस्रमक्षभिर्विचक्षेऽग्ने विश्वतः प्रत्यङ्गसि त्वम् किम् देवे सत्यजयेनश्च कर्थाग्ने पृच्छामि कृत्वा विद्वान् अक्रीरम् क्रीरङ्गनिरत्त वेदम् विपर्वसश्च कर्तगामी वासिः विशोचो अश्वान्ये देव नेजारिजीदिभीरसनाभिर्गृभीतान् रक्षते मित्रो वसुभिस्तुजातः समान् वृधे पर्वभिर्वावृधानः अग्निः सत्यम् वाजम् भरम् ददात्यग्निर्वीरम् श्रुत्यम् कर्मनिष्ठाम् अग्निरोदसी विचारत्समञ्जन्नग्निर्नारीम् वीरकुक्षिम् पुरन्ध्यम् अग्नेरप्नदः समिदस्तु भद्राग्निर्महीरोदसी आविवेश अग्निरेकम् चोदयत्समत्स्वग्निर्वृत्राणि दयते पुरोणि अग्निर्हत्यम् जरदः कर्णमाभाग्निरध्यो निरागधज्जरोधम् अग्निरत्यम् घर्मवोरष्यदन्तरग्निर्मेधम् प्रजयाश्रयत्सम् अग्निर्धातृवीनम् वीरवेदाग्निर्वृषिम् यः सहस्राः सनोति अग्निर्दिवि हव्यमादानाग्नेर्धामानि विभृता पुरुत्रा अग्निमुक्तैर्जो विह्वायन्तेऽग्निर्नरो यामानि बाधितासाः अग्निम् वयो अन्तरिक्षे वदन्तोऽग्निः सहस्रापरीयादिगोणाम् अग्निम् विषायीडते मानोषीर्याग्निम् मनोरो विजाताः अग्निर्गान्धर्वीम् पत्यामृतस्याग्नेर्गव्यो दीर्घृता विषत्ता अग्नये ब्रह्म निभवस्तदक्षरग्निम् महामावोचामासुवृत्तिम् अग्ने प्रावाजरितानम् यविष्टाग्ने महिद्रवीणमायजस्व यजिमा विश्वा भुवानानि यद्वद्विषर्गोधान्यसीदत्पितानाः स आशिषाद्रवीणमिच्छमानः प्रथमच्छदवराविवेश किम् स्वीदासीदधिष्टानमारम्भानङ्गतमस्वित्कथासीत् यतो भूमिम् जनयन् विश्वकम् मा विद्यामौर्णोन्महिना विश्वचक्षाः विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्तात् सम्बाहुभ्याम् धमाधिसम्पदत्रैर्जा वा भूमी जनयन् देवयेकाः किम् सेद्वनङ्गवृक्षाः सयतोद्या वा पृथिवीनिष्टचक्षुः मनीषिणो मनसा पृच्छते दुदद्यदद्यधिष्ठद्भुवनानि धारयन् या ते धावानि परमानि यापमा या मध्यमा विश्वकर्मन्नुते मा शिक्षासखिभ्यो रविणुस्वधाव स्वयम् यजस्वधन्वम् वृधानः विश्वकर्मन् रविणा वा वृधानः स्वयम् यजस्व पृथिवीमुदद्याम् मुह्यम् पन्ये अभिलोचनाद इहास्माकम् मघवा सूरिरस्तु वाचस्पतिम् विश्वकर्माणमूतये मनोजिबम्बाजे अज्जारूवेम स नो विश्वानिहवनानि जोषद्विश्वसम् भूरवसे साधुकर्मा चक्षुषपितामनसायि धीरो घृतमेने अजनन्नम् नमामे यदेदन्तादजगन्तपूर्व आदिद्या वा पृथिवी अप्रचेताम् विश्वकर्माभिमनाद्विघायाधाता विघाता परमोदसन्दृक् एषामिष्टानि समिषामदन्ति यत्रा सप्त ऋषीन् परयेकमाहुः यो नः पिता जनिता यो विधाता धामा निवेदभुवनानि विश्वा यो देवानाम् नामधायेक देवतम् सम् प्रश्नम् भुवनायन्त्यन्या यजन्तद्रवीणम् समस्मारिणयः पूर्वे जरिता नो न भूना असोर्देशोर्दे रजसि निषत्ते ये भूतानि समकृण्वन्निमानि परो दिवा परजेता पृथिव्या परो देवेभिरसूरैर्यदस्ति कम् स्विद्गर्भम् रथमन्दध्रा भोजत्र देवाः समपश्यन्त विश्वे तमिद्गर्भम् प्रथमम् दध्रापो यत्र देवाः समगच्छन्त विश्वे अजस्यनाभावध्येकमर्पितम् यस्मिन् विश्वानि भुवनानि तस्थुः न तम् वेदाधरीमायजानान्यद्युष्माकमन्तरम् बभूव निहारेण प्रावृता जल्प्या चासु दृपमुग्धदासश्चरन्ति यस्ते मन्यो विधद्वज्रदायक सहोजः पुष्यति विश्वमानुषग् साक्षामदा समार्यम् त्वया युजा सहस्कृतेन सहसा सहस्वता मन्युरिन्द्रो मन्युरेव स देवो मन्युर्गोतावरुणो जातवेदाः मन्यम् विषयीलते मानुषीर्या पाहिनो मन्यो तपसा सजोषाः अभीः मन्यो तपसस्तवीयान् तपसा युजा विजहि शत्रून् अमित्रः वृत्रः दस्युहा च विश्वामसोऽन्याभरात्मन्नाः त्वम् हि मन्यो अभिभूत्योजा स्वयम्भूर्धामो अभिमादिषाः विश्वदर्शनिस्सहो निःसहावानस्मास्वजपृतनासु देहि भागस्सन्नपरेतो अस्मितवक्रत्वादविषस्य प्रचेतः सन्वामन्यो अक्रतुर्जीलाहम् स्वादनोर्वरदेयाजमेहि अजन्ते अस्मिपमे शर्वाम् प्रतिचीनः सहुरे विश्वधारः मन्यो वज्रिन्नभिमावृत्सहनावदस्यो मृतवोऽध्यापे अभिप्रेहि दक्षिणलोभवामेधा वृत्राणि जङ्घना बभूरि जुहोमि ते धरुणम् मध्वो अग्रमुभावूपाम् सुप्रथमाभिभाव त्वया मन्यो सरथमारुजन्तो हर्षमानासोधिषितामरुत्वः इग्मेषवायुधा संसिधानाभिप्रयम् दुलरो अग्निरूपाः अग्निरेव मन्याद्यषिदस्सहस्तदेनानीर्नश्च हुरे हूतये हत्वा यशत्रोन्विभजस्ववेदवोजो विमानो विमृधोऽनुदस्व सहस्रमन्यो अभिमादिमस्मे रुजन्मृणन्त्र मृणन्त्रे यशत्रून् उग्रन्ते पाजो नन्वारो रुद्रे वसीवसम् नयसयेकजत्वम् एको बहूनामसि मन्यपीडितो विषम् विषम् युधये संसीसाधि अकृत्तरुत्वया युजा वयम् जुमन्तम् घोषम् विजयाय गृह्महे विशेषकृन्द्रयुवानवब्रभो ओस्माकम् मन्याधिपाभवेह प्रियन्ते नाम सहुरे गृणीमसि विद्मातमुत्संयत आबभूथ आभूत्या सहजा वज्रसायकसहो बिभर्षति भूतमुत्तरम् तत्पालोमन्यो सहनेद्येऽधिमहाधनस्य पुरुहूत संसृजि संसृष्टम् धनमुभयम् समाकृतमस्मभ्यम् दत्ताम् वरुणश्च मन्युः धियम् ददानागृतजेषु सत्र वःपराजिदासो अपनिरायन्ताम् सत्येनोत्तभिदा भूमिः सूर्येणोत्तभिराद्यौः ृतेनादित्यास्तिष्ठन्ति सोमोऽधिसृतः सोमेनादित्या बलिनः सोमेन पृथिवीमहि अथो नक्षत्राणामेधामुपस्थे सोमाहीतः सोमम् मन्यते पिवाञ्जत्सम् बिम्भन्त्योषधिम् सोमञ्जम् ब्रह्माणो विदुर्नतस्याश्नादिकश्चन आच्छद्विधानैर्गुभितो बार्हतैः सोमरक्षितः ग्राम्णामिच्छृण्वन् तिष्ठति नरे अस्मादिपार्थिवः यत्त्वा देवप्रविमम् विदराप्यायसे पुनः भाजः सोमस्य रक्षिता समानाम् मासाकृतिः वैभ्यासीतनतेयीनाराशंसीन्योचनी सूर्याया भद्रमिद्वासो गातयैति परिष्कृतम् चित्तीरापुपवर्धनम् चक्षुराभ्यञ्जनम् ज्योर्भोमिकोशासीत्यात् सूर्यापतिम् सोमा आसन् प्रतिभयः कुलीरम् छन्दमोपतः सूर्याया अस्याः वराग्निरासीत् पुरोगमः सोमावधूयुगभवदश्विनास्तामुभापरा सूर्यान् यत्पत्ये संसन्ति मनसादपिदादात् मनो अस्यान आसीद्यौरासीदुदच्छतिः शुक्रावरड्वास्ताम् विदयात् सूर्या गृहम् कृत्सामाभ्यामभिः तौ गावौ चेतामनावीतः श्रोत्रम् ते चक्रे आस्ताम् त्रिविपन्थाश्चराचरः श्रुती ते चक्रे जात्याभ्यानो अक्षाहतः अनो मनस्पयम् सूर्यारोहत्प्रजतीपतिम् सूर्याया वरतुः प्रागात्सविताय ममासेजत् अघासो हन्यन्ते कामोऽर्जन्याः पर्युह्यते यदश्विना वृच्छमानावजातम् त्रिचक्रेण वहतुम् सूर्यायाः विश्वे देवा अनुतद्वामजानन् पुत्रः पितरा ववृणीतभूषा यदयातम् शुभस्पतीवरेयम् सूर्यामुप वैकम् चक्रम् वामासीत्पदेष्टायतस्थतुः द्वे चक्रे सूर्ये ब्रह्माणावीदुः अथैकम् चक्रम् यद्गुहा तदद्धातयजिद्वीदुः सूर्यायै देवेभ्यो मित्राय वरुणाय च ये भूतस्य प्रचेदस इदम् तेभ्यो करन्नमाः पूर्वापरम् च रतो माययैतौ शिशो क्रीडन्तौ परीयातो अध्वरम् विश्वान्यो भुवनाभिचष्ट ऋतोभिदधज्जायते पुनः नवो नवो भवति जायमानोन्नाङ्के दुर्षदा मेत्यग्रम् भागम् देवेभ्यो विदधात्यायम् प्रचन्द्रमाश्चिरते दीर्घमायोः सुखिम् सुखम् सल्बलिम् विश्वरूपम् हिरण्यवर्णम् सुवृधम् सुचक्रम् आरोहसूर्ये अमृतस्य लोकम् स्योनम् पत्ये भवतम् कृणुष्व उदेष्वादप्रदीपदीह्ये एषा विश्वावासम् नमसागीर्भिरे अन्यामिच्छपि दृढतम् जे भागो जनुषातस्य विद्धि उदीर्ष्वादो विश्वावसो नमासे रामहे त्वा अन्यामिच्च प्रभर्व्या हंसम् जायाम् प्रत्यासृज अनृक्षराजवः सन्धुपन्थाजेभिः सखा योजन्ति नोपधेयम् समर्जमासम्भगो नोनिनीयात् सञ्जास्पत्यम् सुयमामस्तु देवाः रत्वा मुञ्चामि वरुणश्च पासाद्येन त्वा बध्नाः सविता सुसेवाः ऋतरजयो नौ सुकृतस्य लोकेरिष्टान् त्वा सहमत्या दधामि प्रेरो मुञ्चामि नामुदस्सु बद्धाममुदस्करम् यथेयमिन्द्रमेढस्सु पुत्रा सुमकासति भूषात्वेदो न यतुहस्तगृह्याश्विना त्वा प्रवाहताम् रथेन गृहान् गच्छ गृहपत्नी यथा सोऽभसिने त्वम् विदधमावदासि इह प्रियम् प्रजया ते समृद्ध्यतामस्मिन् गृहे गार्हपत्यायजा गृहि येनापत्या तन्वा अंसंसृजस्वाधादिव्री विदधमावदासः नीललोहितम् भवति कृत्या शक्तिर्यजते ये धन्ते अस्याज्ञातयः प्रतिर्बन्धेषु बध्यते परादेयितामुल्यम् ब्रह्मभ्यो विभजावसु कृत्यैषा पद्मती भूत्या जायामि सते पतिम् श्रीरातनोद्भवतिरसति पापया मुया त्वधिर्यद्वद्भो गोपाससास्त्वमङ्गमभिदित्सते ये पद्मश्चन्द्रम् वा खलुम् जक्ष्मायन्ति जनादनो पुनस्ताञ्जज्ञया देवा नयन्तु यदागताः मावीदन्पतिपन्थिनो य आसीदन्ति सम्पति सुगेभिर्दुर्गपदी तापभद्रान्तरादयः सुमङ्गलीरिजम् वधूरिमाम् समे तपश्यत सौभाग्यवनसे दत्त्वा जातास्तम् विपरेतन दृष्टमेतत्कटुकमेतत पाष्टवद्विषभन्नैतदत्तवे सूर्यायो ब्रह्मा विद्यात् स यद्वाधूयमर्हति आससनम् विससनमथो अधिविकर्तनम् सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु सुन्धति गृह्णामि ते सौभगत्वा जगस्तम् मजापत्या जगदष्टिर्यशासाः भगो अर्यवास पितापुरम् धर्मह्यम् त्वा दुर्गार्हपत्या च देवाः ताम् भूषन् क्षिपत मामे राजस्तयस्याम् बीजम् मनुष्या आपपन्ति ज्ञानगुरुः सति विश्रया देयस्यामुसन्तः प्ररामसेपम् त्वभ्यमग्रे पर्यवहन् सूर्याम्बहधुनासः पुनः पतिभ्यो जायाम् दा अग्ने प्रजया सह पुनः पत्नीमग्निरदादायूढा सहवर्चसा दीर्घायुरस्यायः पतिर्जीवादिशरदशतम् सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः सोमो ददद्गन्धर्वाय गन्धर्वो ददद्रये रयिम् च पुत्रांश्चादादग्निर्मह्यमथो जिमाम् इहैव स्तम् मावियौष्टम् विश्वमायुर्व्यश्रुतम् क्रीडन्तौ पुत्रैर्नत्रिभिर्मोदमानौ स्वे गृहे आनः प्रजाम् जनयतु प्रजापतिराजरसायतमानत्वर्यमा अधुर्मङ्गलेः पति लोकमावीशसन्नो भवद्विपदे सञ्चतुष्पदे अघोरचक्षुरपदिघ्नेधि शिवा पशुभ्यः सुमनाः सुवक्ताः वीरसोर्देवकामाश्रो नाशन्नो भवद्विपदे सञ्चतुष्पदे इमाम् त्वमिन्द्रमेध्वस्तु पुत्राम् सुभगान् कृणु दशास्याम् पुत्राणादेहि पतिमेकादशम् कृधि सम्राज्ञेष्वसूरे भव सम्राज्ञेष्वश्वाम् भव नरान्तरि सम्राज्ञी भव सम्राज्ञे अधिदेवृषु समञ्जन्तु विश्वे देवाः समापो हृदयानिनौ सम्मादरिश्वासम् धाता समुदे दधातु नौ अभिषमा भवर्षाणि शतम् साग्रन्थ सुव्रता तेजस्वी तेजसस्वी च धर्मपत्नी पतिव्रता जनयद्बहुपुत्राणि मा च दुःखम् लभेत् क्वचित् भर्ता ते सोमपानित्यम् भवेत् धर्मपराजनः अष्टपुत्रा भवत्पञ्च सुभगाः च पतिव्रता भर्तश्चैव पितर्भ्रातुर्हृदयानन्दिनी सदा इन्द्रस्य तु यथेन्द्राणि श्रीधरस्य यथा श्रीया शङ्करस्य यथा गौरी तद्भर्तुरपि भर्तरि अत्रेर्यथानुसूयास्याद्वसिष्ठस्याप्यरुन्धति कौशिकस्य यथा सती तथा त्वमपि भर्तरि ध्रुवैधिपो श्यामयि मह्यम् त्वादा बृहस्पतिः मया पत्या प्रजापती सञ्जीव शरदः शतम् भद्रम् नो अपि वादयमनाः ओ हरिः ओ दोदसृक्षतनेन्द्रम् देवमामम् सदा यत्रावदद्रिराराभिरर्यः पुष्पेरुमत्सराविश्वस्मादिन्द्रमुत्तरः पराहीन्द्रधावासि वृषाकभेरधिव्यचीः नोऽह प्रविन्दस्यन्यत्र सोमाभीदये विश्वस्मादिन्द्रमुत्तरः किमयम् त्वाम् वृषाकभिश्चकार हरितो मृगः यस्मागिरस्यसि दुन्वा अर्यो वा पुष्टिमद्वसु विश्वस्मादिन्द्रवृत्तरः यमिमम् त्वम् मृषाकाभिम् प्रियमिन्द्राभिरक्षसि स्वान्वस्य जम् भिषदपि कर्णे वराहयुर्विश्वस्मादिन्द्रवृत्तरः प्रियादष्टानि मे कविर्व्यक्ताव्यदूदुषत् शिरोन्वस्य राभिषम् न सुखम् दुष्कृते भुवम् विश्वस्मादिन्द्रवृत्तरः नमत्स्त्रीषु भरत्तरा न सुयासूतरा भुवत् नमत्प्रदेश्यवीयसी न सच्छुक्षवीयसी विश्वस्मादिन्द्रवृत्तरः उभे अम्बसुलाभिगेयसे भाङ्गः विष्यति भसन्मे अम्बदक्षि मे शिरो मे वीभगृष्यति विश्वस्मादिन्द्रवृत्तरः किम् सुबाहो स्वङ्गुरे पृथिष्ठो पृथुजाघरे किम् सूरभत्रिनस्तमभ्यामेषु विडाकबिम् विश्वस्मादिन्द्रवृत्तरः अवीरामि ममामयम् सरारुरभिमन्यते उदारमस्मि वीरनीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्रवृत्तरः सम्भोत्रम् स्म पुराणादीसमानम् वावगच्छति देधारस्य वीरनीन्द्रपत्नी महीयते विश्वस्मादिन्द्रवृत्तरः ओ